एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली वयम् सर्वे देशपिधापनस्य अवस्थायम् स्म इत्यतः अपरस्याः घोषणायाः अभिधानम् यावत् गृहे उषित्वा एव सुरक्षिताः भवितुम् सर्वान् आह्वयति। गतसायम् ट्वीट सञ्जाल माध्यमेन प्रधानमन्त्रिणा ओलिना आत्मना निवासे स्थित्वा सर्वकारस्य सञ्चालनम् विधीयमानमस्ति, सर्वसाधारणाश्च गृहे एव स्थातुम् अनुरुद्धाः वर्तन्ते। राष्ट्रपति विद्यादेवी भण्डारी कोरोना विषाणुनाम् विरोधी अभियानम् सुदृढीकृत्य अमूल्य मानव जीवनस्य रक्षार्थम् स्वस्वस्थानात् क्रियाशीलाः भवितुम् सम्बद्धान् सर्वान् पक्षान् आह्वयति। कोरोना विषाणुभिः उत्पन्नायाः विश्वव्यापी महामार्याः नियन्त्रणस्य सन्दर्भे ह्यः सन्देशम् प्रकाशयन्त्या राष्ट्रपतिना भण्डारिणा कोरोना विषाणुनाम् निरोधन नियन्त्रणयोः कृते आराष्ट्रम् अत्यावश्यकाः सेवाः विहाय सर्वासाम् सेवानाम् साम्प्रतम् अन्तर्राष्ट्रिय सीमा प्रवेशबिन्दूनाम् च पिधानात्मक सर्वकारीय निर्णय सर्वैः गभीरतापूर्वकम् आत्मसात् कर्तव्य इत्युल्लिखितम् वर्तते। राष्ट्रपतिना भण्डारिणा वर्तमानायाम् संवेदनशील परिस्थितौ यथार्थ सूचनाम् गृहीत्वा प्रवाह्य च कोरोना विषाणुनाम् विरूद्धे सञ्चेतनापूर्वकम् अग्रेसरतायै सम्पूर्णानि राजनीतिक दलानि एतेषाम् भ्रातृ संघ संस्थाः अन्य सर्वे च हार्दम् आहूताः सन्ति। नेपाले अतिरिक्तम् एकस्मिन् जने कोरोना विषाणुनाम् संक्रमणम् दृष्टमस्ति। टेकुवर्तिनी शुक्रराज ट्रपिकल संक्रामक रोग चिकित्सालये पंजीभूते एकस्मिन् युनि कोरोना संक्रमणस्य दर्शनम् पुष्टिभूतम् वर्तते। राष्ट्रिय जनस्वास्थ्य प्रयोगशालायाः सूचनाधिकारी राजेश कुमार गुप्ता टेकु चिकित्सालये पंजीभूतस्य एकस्य युनः राल परीक्षणस्य क्रमे मंगलवासरस्य रात्रौ द्वादशवादने कोरोना संक्रमणम् पुष्टिभूतमिति अज्ञापयत्। एतस्य युनः सम्प्रति टेकु चिकित्सालयस्य पृथक् उपचारकक्षे उपचारः विधीयमानो वर्तते। स्वास्थ्य जनसंख्या मन्त्रिणा भानुभक्त ढकालेन कोरोना विषाणुनाम् संक्रमण पुष्टिभूताभिः व्यक्तिभिः सह एकस्मिन् एव वायुयाने विहित यात्रा व्यक्तयः चिकित्सालयस्य स्वास्थ्य संस्थायाश्च सम्पर्के आगन्तुम् आहूताः सन्ति। कोरोना विषाणुनाम् संक्रमणस्य पश्चवर्तिनीम् अवस्थाम् ज्ञापयितुम् गतदिने मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्री ढकालः कोरोना संक्रमण पुष्टिभूतेन व्यक्तिद्वयेन सह वायुयाने विहित यात्राः अतिथिसदने गृहे अन्यत्र वा सहैव स्थिताः अन्येन केनचिद् वा प्रकारेण तयो सम्पर्के आगताः वा व्यक्तिः तत्कालम् स्वास्थ्य संस्थायाम् सम्पर्के आगन्तुम् स्वास्थ्य परीक्षणम् कारयितुम् च आह्वयत्। स्वास्थ्यमन्त्री ढकालः देशपिधापनस्य सर्वकारीय निर्णयम् पालयितुम् अत्यावश्यकावस्थाम् विना गृहात् बहिः न निष्क्रान्तुम् च सर्वान् आह्वयत्। स्वास्थ्यमन्त्री ढकालः नेपाले स्थितानाम् सर्वेषाम् नागरिकाणाम् स्वास्थ्यस्य सुरक्षा संक्रान्तानाम् उपचारस्य व्यवस्था च नेपाल सर्वकारेण विधीयते, विदेशे स्थितानाम् नेपालिनाम् च व्यवस्था सम्बद्ध देशेन क्रियते इत्यतः ये यत्र सन्ति तान् सर्वान् सुरक्षिताः निश्चिताश्च भवितुम् आह्वयत्। मन्त्री ढकालः कोरोना सम्बद्ध सूचनायाः प्रसारणे एकद्वार प्रणालीम् अवलम्बयितुम् मन्त्रालयस्य निर्देशनानि पालयितुम् च अन्तर्गतस्य निकायान् निरदिशत्। उद्योग वाणिज्यापूर्ति मन्त्रालयेन पूर्ण पिधानादेशस्य समये खाद्य वस्तूनाम् औषधानाम् औषधजन्य पदार्थानाम् पाचनेन्धनस्य च विक्रय वितरणकारिणः आपणान् विक्रयकक्षांश्च नियमितरूपेण सञ्चालयितुम् सम्बद्धाः सर्वे अनुरुद्धाः सन्ति। कोरोना विषाणुनाम् संक्रमणस्य निरोधनाय नेपाल सर्वकारेण आराष्ट्रम् विहितस्य पिधानस्य अवस्थायम् आराष्ट्रम् अत्यावश्यक वस्तूनाम् आपूर्ति व्यवस्थाम् सुचारू सञ्चालयितुम् सार्वजनिक सूचनाम् प्रकाश्य एवम् अनुरुद्धम् वर्तते। एवम् विदेशु आपणेषु कार्यरतानाम् सर्वेषाम् कृते अनिवार्य रूपेण मुखाच्छादिकाम् धारयितुम् समये समये स्वच्छीकरण द्रवेण फेनिल जलेन वा हस्तम् प्रक्षालयितुम् च व्यवस्था विधानार्थम् अनुरुद्धमस्ति। मन्त्रालयेन उपभोग्य सामग्रीणाम् औषधानाम् औषधजन्य पदार्थानाम् च कृत्रिमाभावस्य सर्जकाः भण्डारणपरायणाः तास्कर्यकारिणः अवांछिता लाभापेक्षिणश्च एकेऽपि प्रचलित विधेः अनुसारेण अधिकाधिकम् दण्ड्यन्ते इत्युल्लिखितम् वर्तते। कोरोना विषाणु संक्रमण निरोधन नियन्त्रणोच्च स्तरीय समन्वय समितेः ह्यस्तनोपवेशेन चीन दिशा रसुवागढ़ी तातोपानी प्रवेश बिन्दुभ्याम सामग्रीणाम आयात निर्यातौ प्रारब्धम निर्णीतम् वर्तते। उपवेशेन स्वास्थ्य जनसंख्या मन्त्रालयस्य कृषि पशुपक्षी विकास मन्त्रालयस्य च स्वास्थ्य सम्बद्धम् अभिसन्धिम् पालयित्वा एतत् सम्बद्धम् आवश्यक समन्वयम् गृह मन्त्रालयेन अर्थ मन्त्रालयेन च कारयितुम् निर्णीतम् वर्तते। एवमेव उपवेशेन अत्यावश्यकाः कोषागारीय सेवाम् औषध खाद्य वस्तु जलदुग्ध सेवाः फल व्यञ्जन पशुपक्षी मत्स्याहार कुकुट निर्यात सेवाश्च सुचारू सञ्चालयितुम् निर्णीतम् अस्ति। परम् एतत् समये प्रयुक्तैः यानैः यात्रिणाम् नयनानयनञ्च निषिद्धम् वर्तते। विपुल खाद्य भण्डारकैः व्यवसायीभिः आवश्यक खाद्य वस्तूनाम् गृह प्रापण सेवायाः व्यवस्थाम् विधातुम् अत्यावश्यकत्वेन खाद्यान्नानाम् परिवहनस्य आवश्यकत्वे वायुयानेन परिवहनस्य व्यवस्थाम् कर्तुम् च निर्णीतम् वर्तते। विद्युच्चुल्लिकाम् प्रयोक्तुम् प्रोत्साहनाय विद्युच्छुल्के अन्तर्राष्ट्रिय वस्तु प्रवेश शुल्के च सौविध्यम् प्रदातुम् वैदेशिक नागरिकेभ्य स्वराष्ट्रम् प्रत्यावर्तयितुम् सहजीकरणाय च निर्णीतम् अस्ति। इति समाचारः।